योगञ्चतम् योग्यतमाय तस्मै तपःप्रभावाद्विततार सद्यः येनास्य तत्त्वेषु कृतेव भासे समुन्मिमीलेव चिराय चक्षुः। योगं चेति योग्यतमाय अर्हतमाय तस्मै पार्थाय तं वक्ष्यमाणमहिमानं योगं ध्यानविधिञ्च योगस्सन्नहनोपायध्यानसङ्गतियुक्तिषु इत्यमरः। तपःप्रभावात् सद्यः विततार ददौ चिरकालग्राह्यमपीति भावः, येन योगेन तत्त्वेषु प्रकृतिमहदादिषु तथा च मूलप्रकृतिः महान् अहङ्कारः मनश्च पञ्चतन्मात्राणि पञ्चबुद्धीन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चमहाभूतानीति चतुर्विंशतितत्त्वानि, तत्र अवभासे साक्षात्कारे कृते सति अस्य अर्जुनस्य चक्षुः अक्षि चिराय समुन्मिमीलेव उन्मिषितमिव इति उत्प्रेक्षा। तदा तस्य कोऽपि महान् अखिलाज्ञानभञ्जनः तत्त्वावभासः चिरात् अन्धस्य दृष्टिलाभः इव अभवदिति भावः।
आकारमाशंसितभूरिलाभम् दधानमन्तःकरणानुरूपम् नियोजयिष्यन् विजयोदये तम् तपःसमाधौ मुनिरित्युवाच। आकारमिति आशंसितः आख्यातः भूरिलाभः अनेकश्रेयः प्राप्तिः येन तम् तथोक्तम् महाभाग्यसूचकमित्यर्थः। अन्तःकरणशब्देन तद्वृत्तिः उत्साहः लक्ष्यते, तदनुरूपम् तदनुकूलम् उत्साहानुगुणव्यापारक्षममित्यर्थः। आकारम् मूर्तिम् दधानम् तम् अर्जुनम् मुनिः विजयोदये विजयफलके तपःसमाधौ तपोनियमे समाधिर्नियमे ध्याने नीवाके च समर्थने इति विश्वः। नियोजयिष्यन् नियोजयितुम् इच्छन्नित्यर्थः। लृट् शेषे च इति लृट्, लृटः सद्वा इति सत्प्रत्ययः इति वक्ष्यमाणम् उवाच। अनेन योगेन विवृद्धतेजाः निजाम् परस्मै पदवीमयच्छन् समाचराचारमुपात्तशस्त्रः जपोपवासाभिषवैर्मुनीनाम्। अनेनेति अनेन स्वोपदिष्टेन योगेन विवृद्धतेजाः निजाम् पदवीम् परस्मै अयच्छन्, परस्य प्रवेशम् अयच्छन्नित्यर्थः। उपात्तशस्त्रः निगृहीतायुधः सन् जपोपवासाभिषवैः स्वाध्याय अनशनस्नानैः मुनीनाम् आचारम् समाचर अनुतिष्ठा। करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि शिलोच्चयम् चारुशिलोच्चयन्तम् एषक्षणान्नेष्यति गुह्यकस्त्वाम्। करिष्यस इति यत्र शिलोच्चये गोत्रभिदः इन्द्रस्य प्रसत्तये प्रसादाय सुदुश्चराणि तपांसि करिष्यसे। चारुशिलोच्चयम् रम्यशिखरम् तम् शिलोच्चयम् गिरिम् इन्द्रकीलरूपम् अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः इत्यमरः। त्वाम् एष
गुह्यकः यक्षः अनन्तरमेव अस्य पुरः प्रादुर्भावात् एषः इति निर्देशः क्षणात् नेष्यति प्रापयिष्यति इति ब्रुवाणेन महेन्द्रसूनुम् महर्षिणा तेन तिरोबभूवे तम् राजराजानुचरोऽस्य साक्षात् प्रदेशमादेशमिवाधितष्ठौ इतीति इति इत्थम् महेन्द्रसूनुम् अर्जुनम् ब्रुवाणेन उक्तवता वर्तमानसामीप्ये इति भूते वर्तमानवत्प्रत्ययः तिरोधानस्य अविलम्बसूचनार्थः तेन महर्षिणा व्यासेन तिरोबभूवे अन्तर्दधे भावे लिट् राजराजः यक्षराजः राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः इति विश्वः तस्य अनुचरः पूर्वोक्तयक्षः अस्य मुनेः आदेशं साक्षादिव प्रदेशम् अर्जुनाधिष्ठितस्थानम् अधितष्ठौ प्राप्त इत्यर्थः स्थादिष्वभ्यासेन चाभ्यासस्य इति षत्वम् कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ इयाय सख्याविव सम्प्रसादम् विश्वासयत्याशु सताम् हि योगः कृतेति सः पुण्यजनः यक्षः कृतानतिः कृतप्रणामः सन् व्याहृतसान्त्ववादे उक्तप्रियवचने व्याहार उक्तिर्लपितम् इत्यमरः जिष्णौ अर्जुने जातस्पृहः जातानुरागः सन् सख्यौ सुहृदी इव अथ मित्रम् सखा सुहृत् इत्यमरः सम्प्रसादम् विश्रम्भम् इयाय प्राप तथा हि सताम् साधूनाम् योगः सङ्गतिः आशु विश्वासयति विश्वासम् जनयति हि सामान्येन विशेषसमर्थनरूपः अर्थान्तरन्यासः अथोष्णभासेव सुमेरुकुञ्जान् विहीयमानानुदयाय तेन बृहद्युतीम् दुःखकृतात्मलाभम् तमशनैः पाण्डुसुतान् प्रपेदे अथेति अथ उष्णभासा सूर्येण उदयाय पुनरुद्गमाय विहीयमानान् त्यज्यमानानिति तमःप्राप्तिकारणोक्तिः बृहद्युतीन् सौवर्णत्वात् दीप्यमानानित्यर्थः इति तमसः सङ्कोचकारणोक्तिः सुमेरुकुञ्जानिव अत्र सुमेरुग्रहणम् कुञ्जानाम् सौवर्णत्वद्योतनार्थम् तेन अर्जुनेन उदयाय श्रेयसे विहीयमानान् बृहद्युतीन् अनेकबुद्धिप्रकाशान् पूर्ववद्विशेषणद्वयस्य प्रयोजनमनुसन्धेयम् पाण्डुसुतान् चतुरः इति शेषः दुःखेन कृच्छ्रेण कृतः उपपादितः आत्मलाभः उत्पत्तिः यस्य तत्तथोक्तम् तेषाम् विवेकित्वात् कथञ्चित् लब्धोदयमित्यर्थः तमः शोकः अन्धकारश्च तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे इत्युभयत्रापि विश्वः शनैः मन्दम् प्रपेदे तेषाम् विवेकित्वात् भीतभीतमिवेति भावः अत्र तमः शब्दस्य
श्लिष्टत्वात् श्लेषानुप्राणितेयम् उपमा।
असंशयालोचित कार्यनुन्नः प्रेम्णा समानीय विभज्यमानः तुल्याद्विभागादिवतन्मनोभिः दुःखातिभारोऽपि लघुः समेने।
असंशयेति असंशयम् असन्दिग्धम् यथा तथा आलोचितम् विवेचितम् यत्कार्यम् तेन नुन्नः निरस्तः इति लघुत्वहेतूक्तिः। नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् इति निष्ठानत्वम् कार्यगौरवम् आलोच्य निरस्तः इत्यर्थः। तथापि प्रेम्णा भ्रातृवात्सल्येन कर्त्रा समानीय पुनराकृष्य विभज्यमानः समशोकभागी क्रियमाणः तुल्येन प्रेम्णा तुल्यदुःखत्वम् भवतीति भावः। सः पूर्वोक्तः दुःखमेव अतिभारः अपि अतिभारभूतमपि दुःखमित्यर्थः। तन्मनोभिः तेषाम् चतुर्णाम् पार्थानाम् मनोभिः तुल्यात् विभागादिव पूर्वोक्तात् प्रेमकृतात् समविभागादिवेत्यर्थः। वस्तुतस्तु विवेकादेवेति भावः। पुनर्विभागग्रहणम् तस्य हेतुत्वोत्प्रेक्षार्थम् अनुवादात् अदोषः। लघुः मेने मतः। यथा एकः अनेकधा विभज्य बहुभिः उह्यमानः महानपि भारः लघुः मन्यते तद्वदित्यर्थः। धैर्येण विश्वास्यतया महर्षेः तीव्रादरातिप्रभवाच्च मन्योः वीर्यञ्च विद्वत्सु सुते मघोनः सतेषु न स्थानमवाप शोकः। धैर्येणेति धैर्येण तेषाम् निसर्गतः निर्विकारचित्तत्वेन तथा महर्षेः व्यासस्य प्रवर्तकस्येति शेषः। विश्वास्यतया श्रद्धेयवचनत्वेन इत्यर्थः। अरातिप्रभवात् अरातिहेतुकात् तीव्रात् दुःसहात् मन्योः क्रोधाद्धेतोः तथा अर्जुनप्रभावपरिज्ञानाच्चेति हेत्वन्तरम् विशेषणमुखेन आह। मघोनः सुते अर्जुने वीर्यञ्च न लोक इत्यादिना षष्ठी प्रतिषेधः। विद्वत्सु ज्ञातवत्स्विति यावत् विदेश्चतुर्वसुः इति वैकल्पिकः वस्वादेशः। तेषु पार्थेषु सः शोकः स्थानम् स्थितिम् न अवाप न प्राप।
तान् भूरिधाम्नश्चतुरोऽपि दूरम् विहाय यामानिव वासरस्य एकौघभूतम् तदशर्म कृष्णाम् विभावरीम् ध्वान्तमिव प्रपेदे।
तानिति तत्पार्थान् त्यक्तवत् शर्म सुखम् शर्मशातसुखानि च इत्यमरः। तद्विरुद्धम् अशर्म दुःखम् नञ् इति नञ् समासः।
भूरिधाम्नः अतितेजस्विनः इति हानिहेतुत्वोक्तिः।
चतुरः तान् पार्थानपि वासरस्य भूरिधाम्नः चतुरः यामान् प्रहरानिव दूरम् विहाय त्यक्त्वा एकौघभूतम् एकराशिभूतम् सत् श्रेण्यादयः कृतादिभिः इत्यर्थे कर्मधारयः।
श्रेण्यादिराकृतिगणः इति शाकटायनः कृष्णां विभावरीं कृष्णपक्षरात्रिं ध्वान्तमिव कृष्णां द्रौपदीं प्रपेदे प्राप तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः अगूढभावापि विलोकने सा न लोचने मीलयितुं विशेहे तुषारेति सा द्रौपदी विलोकने अर्जुनावलोकने अगूढभावा अगूढाभिप्राया अपि स्फुटाभिलाषिणीति यावत् भावो लीलाक्रिया चेष्टा भूत्यभिप्रायजन्तुषु इति वैजयन्ति मङ्गलभङ्गभीरुः मङ्गलहानेः भीता सती पर्यश्रुणी परिगताश्रुके बाष्पावृते इत्यर्थः अत एव तुषारलेखाकुलितोत्पलाभे हिमबिन्दुसहित इन्दीवरसन्निभे इत्युपमालङ्कारः लोचने मीलयितुं न विशेहे न शशाक अश्रुणोः दृष्ट्यावरकत्वेऽपि तन्निपातस्य अमङ्गलत्वात् तन्निर्वर्तकं निमीलनं सा न चकार इत्यर्थः अकृत्रिमप्रेमरसाभिरामम् रामार्पितं दृष्टिविलोभि दृष्टं मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः अकृत्रिमेति इन्द्रसूनुः अर्जुनः क्रियया निर्वृत्तः कृत्रिमः द्वितक्त्रिः इति त्रिः त्रेर्मम् नित्यम् इति मम् प्रत्ययः तद्विरुद्धम् प्रेमैव रसः अकृत्रिमेण प्रेमरसेन अभिरामम् अन्यत्र प्रेमरसेन मधुरादिना च अभिरामम् रामया रमण्या अर्पितम् दृष्टिम् विलोभयतीति दृष्टिविलोभि दृष्टिप्रियमित्यर्थः दृष्टं दर्शनं नपुंसके भावेक्तः मनःप्रसादः प्रसन्नं मन इत्यर्थः सः अञ्जलिरिवेत्युपमितसमासः तेन मनःप्रसादाञ्जलिना पथि साधु पाथेयं शम्बलमिव पथ्यतिथिवसति स्वपतेर्ढञ् निकामम् अतिशयेन जग्राह रामार्पितं पाथेयं पथि क्षेमाय भवतीत्यागमः धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः निरुद्धबाष्पोदयसन्नकण्ठम् उवाच कृच्छ्रादिति राजपुत्री धैर्येति वन्यद्विपेन वन्यग्रहणम् उच्छृङ्खलत्वद्योतनार्थम् निदाघसिन्धुः ग्रीष्मनदीव निदाघग्रहणम् दौर्बल्यद्योतनार्थम् धैर्यावसादेन धैर्यभ्रंशेन कर्त्रा हृतप्रसादा हृतनैर्मल्या शोभं गमितेत्यर्थः राजपुत्री क्षत्रियसुता द्रौपदी अतः क्षात्रयुक्तमेव वक्ष्यतीति भावः निरुद्धबाष्पोदयं समृद्धरोदनं सन्नकण्ठम् हीनस्वरम् अथ तयोः उभयोः कृतबहुव्रीह्योः क्रियाविशेषणयोः विशेषणसमासः कृच्छ्रात् कथञ्चिदिति वक्ष्यमाणमुवाच मग्नाम् द्विषच्छद्मनि पङ्कभूते सम्भावनाम् भूतिमिवोद्धरिष्यन् आधिद्विषामा तपसाम् प्रसिद्धेः अस्मद्विना मा भृशमुन्मनीभूः मग्नामिति पङ्कभूते पङ्कोपमिते भूतम् क्ष्मादौ पिशाचादौ न्याये सत्योपमानयोः इति विश्वः द्विषच्छद्मनि शत्रुकपटे मग्नाम् दुरुद्धरामित्यर्थः सम्भावनाम् योग्यताम् गौरवमिति यावत् भूतिम् सम्पदमिव भूतिर्भस्मनि सम्पदि इत्यमरः उद्धरिष्यन् उद्धारकस्त्वमिति शेषः आधिद्विषाम् दुःखच्छिदाम् तपसाम् आप्रसिद्धेः सम्यक् सिद्धिपर्यन्तम् अस्मद्विना अस्माभिर्विनेत्यर्थः पृथग्विना इत्यादिना विकल्पात् पञ्चमी भृशम् मा उन्मनीभूः अस्मद्विरहात् दुर्मनाः मा भूरित्यर्थः दौर्मनस्यस्य तपःपरिपन्थित्वादिति भावः माङ्गि लुङ् इत्याशीरर्थे लुङ् नमाङ्योगे इत्यडागमप्रतिषेधः अनुन्मनाः उन्मनाः सम्पद्यमाना उन्मनी अभूततद्भावे च्विः अरुर्मनश्चक्षुश्चेतोरहोरजसाम् लोपश्च इति सकारलोपः अस्य च्वौ इति ईकारः यशोऽधिगन्तुम् सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुम् वा निरुत्सुकानामभियोगभाजाम् समुत्सुके वाङ्कमुपैति सिद्धिः यश इति यशः अधिगन्तुम् कीर्तिम् लब्धुमित्यर्थः सुखस्य लिप्सया लब्धुमिच्छया वा मनुष्यसङ्ख्याम् मनुष्यगणनाम् अतिवर्तितुम् अतिक्रमितुम् वा अमानुषम् कर्म कर्तुम् वा इत्यर्थः अभियोगभाजाम् अभिनिवेशवताम् निरुत्सुकानाम् अनुत्सुकानाम् अदुर्मनायमानानामित्यर्थः सिद्धिः पूर्वोक्तम् यशः सुखाद्यर्थसिद्धिश्च समुत्सुकेव अनुरक्तकान्तेव अङ्कम् उत्सङ्गम् अन्तिकञ्च उपैति तस्मात् अस्मद्विरहदुःखम् आतपःसिद्धेः सोढव्यमिति भावः लोकम् विधात्रा विहितस्य गोप्तम् क्षत्रस्य मुष्णन् वसु जैत्रमोजः तेजस्विताया विजयैकवृत्तेः निघ्नम् प्रियम् प्राणमिवाभिमानम् लोकमिति विधात्रा ब्रह्मणा लोकम् गोप्तुम् विहितस्य सृष्टस्य क्षत्रस्य क्षत्रियजातेः सम्बन्धि जयनशीलम् जेतृ तदेव जैत्रम् जेतृशब्दात् तृन्नन्तात् प्रज्ञादिभ्यश्च इति स्वार्थे अण्प्रत्ययः ओजो बलम् दीप्तिर्वा ओजो बले च दीप्तौ च इति विश्वः तदेव वसु धनमिति रूपकालङ्कारः मुष्णन् अपहरन् अरिनिकृतस्य कुतः क्षात्रम् तेजः इति भावः किञ्च विजयैकवृत्तेः विजयैकजीवितायाः क्षत्रियस्य विजितव्यम् इति स्मरणादिति भावः वृत्तिर्वर्तनजीवने इत्यमरः तेजस्वितायाः तेजस्विनामित्यर्थः तेजः प्राधान्यद्योतनार्थं भावप्रधानः निर्देशः प्रियं प्राणमिव प्राणसममित्यर्थः अभिमानं अहंकारं निघ्नन् खण्डयन् तेजस्विनां प्राणहानिप्राया मानहानिरिति भावः
व्रीडानतैरात्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः वितानभूतं विततं पृथिव्यां यशस्समूहन्निव दिग्विकीर्णम्
व्रीडेति पुनश्च आत्तजनेन उपनीतः साधितः प्रापितः इत्यर्थः तथापि संशय्य सन्दिह्य असंभावितबुद्ध्या इति भावः व्रीडानतैः जुगुप्सितवृत्तान्तश्रवणादिति भावः नृपैः देशान्तरस्थैः कृच्छ्रेण प्रपन्नः आप्तोक्तत्वात् कथञ्चित् विश्वस्तः इत्यर्थः यः शृण्वतामपि दुःसहः किमुत अनुभवतामिति भावः इत्येषां पूर्वेषां व्याख्या अन्यथा च व्याख्यायते आप्तजनोपनीतः ज्ञातिकृतः संशय्य कथमिदम् अन्याय्यम् उपेक्ष्यमिति विचार्य व्रीडानतैः जुगुप्सितकर्मदर्शनादिति भावः नृपैः तत्रत्यैः कृच्छ्रेण प्रपन्नः अङ्गीकृतः गोत्रकलहेषु मध्यस्थैः उदासितव्यमिति बुद्ध्या उपेक्षित इत्यर्थः पक्षद्वयेऽपि प्रपन्न इत्यत्र आप्तजनोपनीतत्वस्य पदार्थभूतस्य विशेषणगत्या हेतुत्वोक्त्या काव्यलिङ्गमलङ्कारः पृथिव्यां वितानभूतम् उल्लोचोपमितम् यद्वा वितानभूतम् वितानसमम् उल्लोचतुल्यमिति यावत् युक्तेष्मादावृते भूतम् प्राण्यतीते समे त्रिषु इत्यमरः अस्त्रीवितानमुल्लोचः इत्यमरः दिग्विकीर्णम् दिगन्तलग्नम् वितानमपि दिगन्तलग्नमिति भावः विततम् प्रथितम् यशः समूहन्निव सङ्कोचयन्निवेति उत्प्रेक्ष अरातिपरिभूतस्य कुतः कीर्तिरिति भावः वीर्यावदानेषु कृतावमर्शः तन्वन्नभूतामिव सम्प्रतीतिम् कुर्वन् प्रयामक्षयमायतीनाम् अर्कत्विषामह्न इवावशेषः वीर्येति पुनश्च वीर्याण्येव अवदानानि तेषु कृतावमर्शः कृतास्कन्दनः पुराकृतपराक्रमजातान्यपि प्रमृजन्नित्यर्थः अवदानं कर्मवृत्तम् इत्यमरः अत एव सम्प्रतीतिम् ख्यातिम् प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः इत्यमरः अभूताम् अविद्यमानामिवेति उत्प्रेक्ष सतोऽपि असत्त्वमुत्प्रेक्ष्यते तन्वन् कुर्वन् पुनश्च अह्नः अवशेषः दिनान्तः अर्कत्विषामिव आयतीनाम् उत्तरकालानाम् प्रयाम् अक्षयम् दैर्घ्यनाशम् कुर्वन्निति श्रौती पूर्णा इयम् उपमा अरिनिराकृतस्य कुतः चिरावस्थानमिति भावः प्रसह्य योऽस्मासु परैः प्रयुक्तः स्मर्तुम् न शक्यः किमुताधिकर्तुम्। నవీకరిష్యత్యుపశుష్యదార్ద్రః సత్వద్వినామే హృదయం నికారః ప్రసహ్యేతి. పునశ్చ పరైః శత్రుభిః అస్మాసు ప్రసహ్య ప్రయుక్తః ఆచరితః యః నికారః పరిభవః కేశాకర్షణరూపః స్మర్తుం న శక్యః. అధికర్తుం అనుభవితుం కిముత యస్య స్మరణమపి దుస్సహం అనుభవస్తు దుస్సహ ఇతి కిము వక్తవ్యమిత్యర్థః. సహ నికారః త్వద్వినా త్వయా వినా పృథగ్వినా ఇత్యాదినా పంచమీ. ఆర్ద్రసన్ కుతశ్చిత్ అభిభూతాత్ పురాణ ప్రహార ఇవ త్వద్విరహ దుఃఖాత్ పునః నవీకరిష్యతి నవీభవిష్యతి ఇత్యర్థః. ఉపశుష్యత్ త్వయా వినా శుష్కమితి భావః. దుఃఖస్తంభనం శోషపదార్థః మే హృదయం నవీకరిష్యతి ఆర్ద్రీకరిష్యతి వ్రణమివేతి భావః. దుఃఖితస్య పునర్దుఃఖోపచయః ప్రశాంతప్రాయమపి దుఃఖహేతుం పునరుద్ఘాటయతీత్యర్థః. అత్ర శోషాదివిశేషణసామ్యాత్ వ్రణాద్యప్రస్తుతార్థప్రతీతేః సమాసోక్తిరలంకారః. ప్రాప్తోభిమానవ్యసనాదసహ్యం దంతీవదంతవ్యసనాద్వికారం ద్విషత్ప్రతాపాంతరితోరుతేజాః శరద్ఘనాకీర్ణ ఇవాదిరహ్నః. ప్రాప్త ఇతి అభిమానస్య వ్యసనాత్ భ్రంశాత్. వ్యసనం విపతి భ్రంశే దోషే కామజకోపజే ఇత్యమరః. దంతవ్యసనాత్ దంతభంగాత్ దంతీవ అసహ్యం వికారం వైరూప్యం ప్రాప్తః. అతః న ప్రత్యభిజ్ఞాయతే ఇతి భావః. ఏవం ఉత్తరత్రాపి అనుసంధేయం. పునశ్చ ద్విషత్ప్రతాపేన శత్రుతేజసా అంతరితం తిరస్కృతం ఉరు తేజః ప్రతాపః యస్య సః తథోక్తః. అత ఏవ శరద్ఘనాకీర్ణః శరన్మేఘచ్ఛన్నః అహ్నః ఆదిః ప్రత్యూష ఇవ స్థితః. తద్వదేవ అప్రత్యభిజ్ఞాయమానః ఇత్యర్థః. మధ్యాహ్నస్తు మేఘావరణేపి కథంచిత్ ప్రత్యభిజ్ఞాయతే ఏవేతి ఆశయేన ఉక్తం ఆదిరితి.